इन्द्रस्य नो वीर्याणि प्रवोचय्यानि चकार प्रथमानि वज्रे अहं न हि मन्वपस्तदर्धप्रभक्षणा अभिनत्पर्वतानाम् अहं न हिम् पर्वतेषु श्रियाणम् त्वष्टास्मै वज्रम् स्वर्यम् ददक्ष वाश्रा इव धेनभस्यन्दमाना अञ्जः समुद्रमव जग्मुरापाः वृषायमाणो वृणीतसो मन्त्रिकदृगेष्वपि मत्सुतस्य आसाजकम् मघवा दत्तवज्रमहन्नेनम् प्रथमजामहीनाम् यदिन्द्राहन् प्रथमजामहीनामान्माजिनाममिनाः प्रोतमायाः आत्सूर्यम् जनयन्यामुशासम् तादेत्ना शत्रुन्न किला विवित्से अहन् व्रत्रम् व्रत्रतरम्यम् समिन्द्रो वज्रेण महता वधेन स्कन्धांसे भकुलिशेना विभ्रक्णाहिश्रयत उपप्रपृथिव्याः अयोद्धेव दुर्मद आहि जुह्वे महावीरन्तु विबाधमृजेशम् नातारेदस्य समृतिम् बधानाम् संमृजानाः पिपिष इन्द्रशत्रुः अपादहस्तो अप्रतञ्जदिन्द्रमास्य वज्रमधिसानौ जघान वृष्णवध्रः प्रतिमानम् बुभोषन् पुरुत्रा भृत्रो अशयद्व्यस्तः नदन्नभिन्दममुजाशयानम् मनोरुहाणा अतिजन्त्यापाः याश्चिद्भृत्रा महिना पर्यतिष्ठत्ता सा महिः पत्सुतशेर्बभूव नीचावजा अभवद्व्रत्रपुत्रेन्द्रो अस्या अभवधर्जभार उत्तरासोरधरः पुत्र आसीद्दारुश्रये सह वत्सानधेनुः अतिष्ठन्ति नाम निवेशनानाम् काष्ठानाम् मध्ये निहितम् शरीरम् वृत्रस्य निण्यम् विचरन्त्यापो दीर्घन्तम आशयदिन्द्रशत्रुः दासपत्नेरहि गोपा अतिष्ठन्निरुद्धा आपः पणिने भगावाः अपाम् बिलमपि हितैयदासीद्वृत्रम् जघन्वाम् अपतद्ववार अश्व्यो वारो अभवस्तदिन्द्रसृगे जत्वा प्रत्यहन् देव एकाः अजयोगा अजयशो रसो मम वा सृजः सर्तवे सप्त सिन्धून् नास्मै विद्युन्नतम् जतुःशिषे धनजाम्यहमकिरद्रादुनिम् च इन्द्रश्च यद्युजुधाते अहिश्चोता परेभ्यो मघवा विजज्ञे अहेर्यातारङ्कमपश्य इन्द्रहृदिजप्ते जघ्नुषोभिरगच्छत् न पचयन्न पतिम् च स्रवम् देश्येनो न भीतो अतरो रजांसि इन्द्रो अजातो वसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः से दुराजा अक्षयति चर्षणीनामरान्ननेभिः परिता बभूव इति द्वितीयोऽध्यायः।